इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्यवार्ताः। विदेशसचिवः विक्रम मिश्री इत्येषः आगामिनः रविवासराद् आरभ्य चीनदेशस्य द्विदिवसीय यात्रायां भविष्यति। रक्षामन्त्री राजनाथसिंहः नवदिल्ल्यां युद्धक्षेत्रनिरीक्षणप्रणाल्याः संजय इत्येतस्याः शुभारम्भं कृतवान्। जलशक्तिमन्त्री सीआर पाटिलः सबलं प्रतिपादितवान् यत् भारतं न केवलं जलसंरक्षणाय पूर्णतो दृशास्ति प्रतिबद्धमपि तु अस्मिन् महत्वपूर्णक्षेत्रे एकां परिवर्तनकारिणीं क्रान्तिमपि जनयति। अद्य नवदिल्ल्यां भारत निर्वाचनायोगस्य द्विदिवसीय सम्मेलने त्रयोदश देशानां निर्वाचन प्रबन्ध निकायानां त्रिंशदधिक संख्यकाः प्रतिनिधयः भागं भजन्ति। दिल्ली विधानसभा निर्वाचनाय प्रचारः तीव्रगत्या प्रचलति। राजनैतिक दलानां प्रमुखाः नेतारः मतदातॄन् आक्रष्टुं जनसभाः कुर्वन्ति। अपि च ऑस्ट्रेलिया ओपन टेनिस प्रतिस्पर्धायां नोवाक जोकोविच इत्येतस्य क्षतेः कारणात् अलेक्जेंडर ज्वेरेव इत्येषः पुरुषैकल वर्गस्य अन्त्यचक्रे प्रविष्टवान्। अथ वार्ताः विस्तरेण। विदेशसचिवः विक्रम मिश्री इत्येषः आगामिनः रविवासराद् आरभ्य द्विदिवसीय यात्रायां प्रतियास्यति, यत्र भारतचीनदेशयोः मध्ये विदेशसचिवमन्त्रीतन्त्रस्य उपवेशनं सम्बद्धमस्ति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः नवदिल्ल्यां सूचितवान् यत् विदेशसचिवः चीनदेशे स्वीयेन चीनदेशीयेन समकक्षेण सह मिलिष्यति, यत्र द्विपाक्षिक हितानां सर्वाणि विषयाणि चर्चिष्यन्ते। अवैधप्रवासस्य प्रश्नेष् जयसवालः अवदत् यत् भारतम् अवैधप्रवासस्य विरुद्धं वर्तते, विशेषतः यतोहि संघटितापराधस्य अनेकप्रकारकैः सह सम्बद्धः अस्ति। सः अग्रे अवोचत् यत् भारतीयानां कृते न केवलं संयुक्ताराज्यामेरिकादेशे अपि तु विश्वस्य कस्मिन्नपि स्थाने यदि ते भारतीयनागरिकाः सन्ति तथा चेत् ते अधिककालं यावत् तत्र तिष्ठन्ति अथवा ते सम्यक् प्रलेखनं विना कस्मिंश्चिदपि देशे सन्ति तर्हि भारतसर्वकारः तान् पुनः ग्रहीष्यति इति। रक्षामन्त्री राजनाथसिंहः अद्य नवदिल्ल्यां युद्धक्षेत्रनिरीक्षणप्रणाल्याः संजय इत्येतस्याः शुभारम्भं कृतवान्। इदं हि निरीक्षणप्रणाली युद्धक्षेत्रस्य पारदर्शितां संवर्धयिष्यति अथ च भविष्यस्य युद्धक्षेत्राणि परिवर्तयिष्यति, यतोहि इदं हि खलु अत्याधुनिकसंवेदकयन्त्रैः अत्याधुनिकविश्लेषणयन्त्रैश्च संवलितास्ति। एषा प्रणाली अस्मिन् वर्षे मार्चमासाद् आरभ्य भारतीयसेनायां त्रिषु चरणेषु सम्मिलिता भविष्यति। रक्षामन्त्रालयानुसारि अनया प्रणाल्या गुप्तचरविभागाः तत्सम्बद्धानि अन्वेषणकार्याणि इतोऽपि संवर्धिष्यन्ते, अपि च भारतीयसेनायां दत्तांशस्य आन्तर्जालिकसञ्चालनस्य च दिशि नवीनः पदक्षेपो भविष्यति। संजय इत्याख्या प्रणाली भारतीयसेना भारत इलेक्ट्रॉनिक्स लिमिटेड इत्युभाभ्यां संयुक्तरूपेण विकसितास्ति। अस्याः प्रणाल्याः समग्रव्ययं 2.5 लाख करोड़ रूप्यकाणि यावदस्ति। एषा युद्धक्षेत्रे निरीक्षणप्रणाली संजय इति आगामिनि गणतन्त्रदिवसपथसञ्चलनावधौ कर्तव्यपथे मुख्याकर्षणत्वेन स्वीयस्थानं प्रतिपादयिष्यति। जलशक्तिमन्त्री सीआर पाटिलः सबलं इदं प्रतिपादितवान् यत् भारतं न केवलं जलसंरक्षणाय पूर्णतो दृशास्ति प्रतिबद्धम् अपि तु अस्मिन् महत्वपूर्णक्षेत्रे एकां परिवर्तनकारिणीं क्रान्तिमपि जनयति। दावोसनगरे ऐषमः विश्वार्थिकमञ्चस्य भारत पवेलियन इत्याख्ये मण्डपे मुख्य भाषणं कुर्वन् श्रीपाटिलः अवोचत् यत् बृहन्मात्रायां कृतप्रयासैः राष्ट्रं स्वजलसंसाधनानि भृशं सुदृढानि कृतवत्, येन हि सततरूपेण जलप्रबन्धनाय एकं वैश्विकं मानकं स्थापितमस्ति। अन्ताराष्ट्रिय सहयोगं सामूहिक कार्यजातं च सुदृढयितुं समाह्वयन् श्रीपाटिलः इदं स्पष्टीकृतवान् यत् जलाभावः यद्धि जलवायुपरिवर्तनेन अधिकजनसंख्यया अतिप्रयोगेन च अतोऽपि वर्तते एकं सार्वभौमिकं समाह्वानम्। तेन कथितं यत् विगतेषु कतिपयवर्षेषु भारतप्रशासनेन ग्रामीणभारताय सुरक्षितपेयजलं सुनिश्चेतुम् उल्लेखनीया प्रगतिः अवाप्ता इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। सम्प्रति श्रूयन्तां कुम्भसम्बद्धाः वार्ताः।
उत्तरप्रदेशस्य मेला प्रशासनेन महाकुम्भे मौनी अमावस्यायाम् अमृतस्नानाय व्यापकी सज्जा कृतास्ति। दशकोटितोप्यधिक संख्यकानां भक्तानाम् आगमनस्य सम्भावना अवलोक्यते। तेषां च गतिं नियन्त्रयितुं दिङ्निर्देशाः दत्ताः सन्ति। घट्टेषु जनसम्मर्दं नियन्त्रयितुम् आवश्यक संसाधनानि नियोजिताः भविष्यन्ति। घट्टेषु उत्तमसुविधाः, सुरक्षा, स्वच्छता, शौचालयाः, वाहन स्थापन व्यवस्था च सुनिश्चिताः भविष्यन्ति। प्रयागराज रेल स्थानकस्य बहिः खुसरो बाग इत्यत्र अतिरिक्तं क्षेत्रं निर्मितमस्ति, यत्र 1,00,000 यावत् भक्ताः निवासं कर्तुं शक्नुवन्ति। भक्तानां रेल स्थानक परिसरं प्रति गमनात् पूर्वं खुसरो बाग इत्यत्र निवासः भविष्यति। ततः तेषां गन्तव्य रेल यानं प्रति भिन्न वारणिक युतायाः यात्राचीटिकायाः माध्यमेन गमनं भविष्यति। अनया व्यवस्थया यात्रिणां गन्तव्यस्थानकं प्रति सुचारुतया गमनं भविष्यति, यत्र कापि भ्रामक स्थितिः न भविष्यति। महाकुम्भस्य आयोजनं सुरक्षितं सुव्यवस्थितं च कर्तुम् अयं निर्णयः गृहीतः अस्ति। संस्कृत वार्ताकक्षतः पुनीत त्रिपाठी।
मुख्य निर्वाचनायुक्तः राजीव कुमारः अद्य स्पष्टीकृतवान् यत् बायोमेट्रिक इति जीवमितीय प्रमाणीकरणम् एकम् आशाजन्यं नवाचारं विद्यते, यद्धि न केवलं छद्माभिज्ञानस्य प्रत्युत एकाधिकमतदानस्य अल्पं करोति, एतदपि सुनिश्चीयते यत् अंकितमतदानम् उचितप्रत्याशिने मिलितव्यम्। असौ नवदिल्ल्यां भारतस्य निर्वाचनायोगद्वारा आयोजितस्य द्विदिवसीय सम्मेलनस्य द्वितीये दिवसे निर्वाचनप्रबन्धनिकायान् सम्बोधयन् एतद् उक्तवान्। उपराष्ट्रपतिः जगदीप धनखडः अद्य प्रतिपादितवान् यत् भारतरत्नः कर्पूरी ठाकुरवर्यः एकः सत्यनिष्ठः राजनेता, दूरदर्शी राजनीतिज्ञश्च आसीत्, येन अनेके परिष्कारात्मक पदक्षेपाः उत्थापिताः। अद्य बिहारस्य समस्तीपुरस्य कर्पूरी ग्रामे भारतरत्न अलंकृतस्य कर्पूरी ठाकुरवर्यस्य एकाधिकैकशततमे जयन्त्यवसरे आयोजितम् एकं विशिष्टं समारोहं सम्बोधयन् उपराष्ट्रपतिः निगदितवान् यत् सामाजिकन्यायाय आरक्षणं, मातृभाषायां शिक्षाप्रदानम्, अन्ताजातीय विवाह संवर्धनञ्च कर्पूरीवर्येण उत्थापितेषु प्रमुखेषु कार्येषु अन्यतमानि सन्तीति। श्रीधनखडः अग्रे अवोचत् यत् कर्पूरी ठाकुरवर्यः कदापि राजनीतौ वंशवादाय बलं नैव प्रदत्तवान्, तस्य च निर्दोषयुतः स्वभावः स्मरणीय अस्तीति।
जाति धर्म और वर्ग के ऊपर उठकर समानता को दृष्टिगत रखते हुए विकास को संपन्न करते थे। आज केंद्र से लेकर बिहार तक की सरकारें उनके सपनों को आगे बढ़ा रही है, उनकी वाई वाई हो रही है। आज प्रधानमंत्री नरेंद्र मोदी किशन मोड में हर घर में पाइप के पानी, हर घर में गैस कनेक्शन, हर घर में शौचालय, हर घर में बिजली, ऐसा संपन्न करने वाली जनहित की नीतियों को जुनून के साथ लागू कर रहे हैं। गत 10 वर्षों में भारत ने जो विकास का हाल देखा है वो दुनिया में बेमिसाल है। किसी भी देश ने इतनी बड़ी प्रगति नहीं देखी जितनी गत 10 वर्ष में भारत ने देखी है।
दिल्ल्याम् आगामि विधानसभायाः निर्वाचन प्रचारः तीव्रीभूतः। आगामिनि मासे भविष्यमाणाय विधानसभा निर्वाचनाय समेषां राजनीतिक दलानां नेतारः मतदातृन् आक्रष्टुं प्रयासान् कुर्वन्ति इति वार्ताः।